सर्वेषां संस्कृतकक्षायां स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. विद्या ददाति विनयं, विनयात् याति पात्रतां, पात्रत्वात् धनमाप्नोति, धनात् धर्मः ततः सुखम्. इत्युक्ते किम्? इत्युक्ते विद्याभ्यासात् वयं विनयं प्राप्नुमः. अत्र विनयः इत्युक्ते न केवलं विनम्रता, परन्तु सम्यक् रीत्या प्रशिक्षणं, इत्युक्ते विद्याभ्यासेन वयं प्रशिक्षणं प्राप्नुमः. तस्मात् अस्माकं सामर्थ्यं वर्धते, अस्माकं योग्यता अपि वर्धते. सामर्थ्यवर्धनेन धनं प्राप्तुं शक्नुमः. अनन्तरं तद्धनं धर्माचरणार्थम् उपयोगः भवति. इत्युक्ते धनेन एव धर्माचरणसामर्थ्यं वर्धते, अन्ततो गत्वा धर्माचरणेन एव सुखं लभ्यते, न तु धनसम्पादनेन. अत्र सुभाषितकारः वदति, केवलं धर्माचरणेन एव सुखं लभ्यते, न तु धनसम्पादनेन. इत्युक्ते अत्र सारांशः कः इत्युक्ते, विद्याभ्यासात् वयं सम्यक् प्रशिक्षणं प्राप्नुमः, तस्मात् अस्माकं योग्यता वर्धते, अपि च धनं सम्पादयितुं शक्नुमः, धनेन धर्माचरणं कर्तुं शक्नुमः, तेन वयं सुखं प्राप्तुं शक्नुमः. इत्युक्ते विद्याभ्यासात् वयं अन्ततो गत्वा अस्माकं सुखं प्राप्तुं शक्नुमः. उत्तमम्. अनन्तरम् अहम् एकं वक्तुमिच्छामि. अत्र भवन्तः सर्वे अस्माकं ध्वनिमुद्रणं श्रुतवन्तः वा? किमर्थं ध्वनिमुद्रणं श्रोतव्यं? ध्वनिमुद्रणस्य श्रवणेन कः लाभः? ध्वनिमुद्रणस्य श्रवणम् आवश्यकं वा न वा? भवतां मतं किं? भवतः अभिप्रायः कः इति यदि भवन्तः इच्छन्ति चेत् त्रीणि वाक्यानि वदन्तु. ऐ एम् अनौन्सिङ्ग् दिस् इन् इङ्ग्लिश् आल्सो. ऐ एम् अस्यूमिङ्ग् दट् यु आर् लिस्निङ्ग् टु द आडियो रेकार्डिङ्ग्. ऐ जस्ट् वाण्ट् यु टु ट्रै टु एक्स्प्लेन् युवर् एक्स्पीरियन्स् अबौट् लिस्निङ्ग् टु द आडियो ईदर् इन् इङ्ग्लिश् आर् इन् संस्कृतम् इन् त्री सेण्टेन्सेस्. ऐ जस्ट् वाण्ट् यु टु टेल् त्री सेण्टेन्सेस्. Why is it important to listen to the audio recording? Kaha vaktum ichyati?
Atra. This is Samir here. I can go first.
Yeah, vadatu mahodaya.
Whenever I listen to recorded audio, first of all, it helps for a quick revision. Second, it kind of re-emphasizes all the material we went through. This is very convenient to listen to whenever, like, you are driving or doing something else. That way, you know, you can kind of use that time.
Uttama.
And then revise the material.
Uttama. Umashankar Mahodaya, Bhavan Vaktum Ichyati Va?
Yeah, we can have a Puna Smaranam and we can increase the learning power by going through the articles again and again. If we miss a class also, we can go and look that one, and we can revise all the recordings and get up to date.
Uttamam. Subharam hote bhavan vaktum ichyati va? Sanskrita bhashayam vaktum prayatnam karotu. Kinchit prayatnam karvantu. Kevalam trini vakyani. नो चेत् आङ्ग्लभाषायामपि वक्तुं शक्नुवन्ति. वदतु महोदय.
I would like to tell in English, because if I have to tell in Sanskrit, I need to prepare a little bit.
अस्तु महोदय, वदतु.
It will be certainly useful when I have to, it is useful as a revision of the class, and especially where sometimes I might not have followed the conversation, or meaning some question. Okay, did I say saha or sa? That type of thing. Very where there is less. A difference in the pronunciation.
Hmm.
So that would be helpful, and it is helpful in when I have not attended the classes. It is very much helpful, and in addition to that, actually, I'm going to the other classes also. Just if I have nothing to do, just I'm listening to the recorded video of other classes available in the website.
Uttam. Anantram Rajiv Mahodaya, Bhavan api vadatu, kinchit prayatnam karotu, Sanskrit bhashayam. Kevalam trini vakyani, laghu vakyani vadatu.
I was trying to make some sentences without any success.
Shravayatu.
Aham upayojati recording. How do I say learn better?
Aham dhvanimudranam shrutva samyak avagantum shaknomi. Aham.
Okay. Aham.
Dhvanimudranam shrutva. Vadatu.
Dhvanimudram shrutva.
Samyak avagantum shaknomi. Uttamam. Prayatnam karatu. Anantaram. Whatever you feel, but I believe that we learned Sanskrit only by listening to the audio recordings. That's why I sincerely suggest all of you to listen to the recording. It will be certainly helpful.
Okay.
Uttama. Anantaram, Kadambari Bhagini Bhavati Kim Chit Vaktam Ichati Va? Vadat?
It's useful to revise, and it helps me to understand what I have not understood in the class, and I can realize how much I have learned and how much I have not learned, so that I can learn.
Uktavati bhavati uttamam bhagini anantram. अत्र शकुन्तला भगिनी भवती किञ्चित् वक्तुम् इच्छति वा
अहं पुनःस्मरणं करोति टु रीइन्फोर्स् मै लर्निङ्ग्
उत्तमं टु रीइन्फोर्स् युवर् लर्निङ्ग् उत्तमं सर्वे ध्वनिमुद्रणं शृण्वन्तु किञ्चित् चिन्तयन्तु संस्कृतभाषायां भाषया वदने वक्तुं प्रयत्नं कुर्वन्तु अधुना वयं किञ्चित् पुनःस्मरणं कुर्मः इदानीं पर्यन्तं वयम् अष्टादशपुटपर्यन्तं पठितवन्तः अत्र गृहपाठः कः आसीत् इति वयं पश्यामश्चेत् अत्र गते सप्ताहे अहं गृहपाठं दत्तवती यत् भवतां दिनचर्या का इत्युक्ते प्रतिदिनं भवन्तः किं किं कुर्वन्ति कदा कुर्वन्ति अनन्तरं दिनचर्यायाः विषये दशवाक्यानि लिखन्तु इति अहं गृहपाठरूपेण दत्तवती अपि च पाकशालासम्बन्धीनि वस्तूनि अभ्यासपुस्तके सन्ति तानि वस्तूनि दृष्ट्वा अपि च भवतां पार्श्वे गृहसम्बन्धीनि पदानि अपि सन्ति पुटद्वयं दृष्ट्वा कानिचन नूतनानि कुतूहलजनकानि वाक्यानि रचयन्तु रैट् सम् इण्ट्रेस्टिङ्ग् सेण्टेन्सेस् यूसिङ्ग् दीस् वर्ड्स् दट्स् वाट् ऐ हेव् गिवन् एस् अ होम्वर्क् अहं चिन्तयामि भवन्तः सर्वे किञ्चित् प्रयत्नं कृतवन्तः यदि भवन्तः रचितवन्तः चेत् किञ्चित् कालं इदानीं पर्यन्तं वयं किं पठितवन्तः इत्यस्मिन् विषये पुनःस्मरणं कृत्वा अग्रे गच्छेम We'll just revise whatever we have learnt and we'll go further. Adhuna, दिनचर्यायाः विषये कानिचन वाक्यानि रचितवन्तः चेत् वदन्तु. हु वाण्टेड् टु ट्रै फस्ट्? कः वक्तुमिच्छति प्रथमतया
दिनचर्यायाः?
वदतु महोदय.
अहं पञ्चवादनम् उत्तिष्ठामि.
अत्र किञ्चित् समीकरोतु. किञ्चित् पञ्चवादने
अहं पञ्चवादने उत्तिष्ठामि.
उत्तमम्. अनन्तरं किं करोति भवान्?
अहं षट्वादने देवं पूजयामि.
अनन्तरम्
अहं सार्धषट्वादनं प्रातरासं खादामि.
पुनः वदतु तदेव वाक्यम्.
अहं सार्धषट्वादनं
सप्तवादने
सार्धषट्वादनं
सार्धषट्वादने
प्रातरासः खादामि.
किम् उक्तवान् भवान्? कः रसः?
प्रातरसः
इत्युक्ते भवान् किं वक्तुमिच्छति तत्र? रसः अहं न अवगतवती, अतः पृच्छामि.
अस्तु
महोदय, अल्पाहारं स्वीकरोति भवान्. अनन्तरं किं करोति?
अहं सार्धसप्तवादने कार्यालयं गच्छामि.
उत्तमम्.
अहं सङ्गणकम् उपयोजामि. Is that the right sentence?
भवान् सङ्गणकम् उपयुज्य किं करोति भवान्? सङ्गणकम् उपयुज्य कार्यं करोमि.
उपयुज्य कार्यं करोमि.
अनन्तरम्
अहं षट्वादने गृहम् आगच्छामि.
उत्तमम्. अनन्तरम्
अहम् अष्टवादने रात्रिभोजनं खादामि. अहं नववादनं चलचित्रं पश्यामि.
नववादने चलचित्रं पश्यामि. उत्तमम्.
अहं सार्धदशवादने शयनं करोमि.
उत्तमं. सम्यक् लिखितवान् महोदय. धन्यवादः. सम्यक् लिखितवान्. उत्तमम्. अनन्तरं कः श्रावयितुमिच्छति?
अहं वदामि.
वदतु महोदय.
अहं षट्वादने उत्तिष्ठामि. अनन्तरं दन्तधावनं करोमि. अनन्तरं मुखप्रक्षालनं करोमि. सप्तवादने अहं काफीं पिबामि. अनन्तरं स्नानं करोमि. अष्टवादने पूजां करोमि. नववादने अल्पाहारं खादामि. अनन्तरं कार्यालयं कार् वाणे वि केन् से कार् कार्यानं कार्याने 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 कार्यालयं चलति चलामि.
अत्र पश्यतु महोदय, कारयानेन कारयानेन कार्यालयं गच्छामि.
कारयानेन कार्यालयं गच्छामि.
अत्र अत्र पश्यन्तु, सर्वे पश्यन्तु, केवलम् अत्र अनुवादं कर्तुं न शक्नुमः. इत्युक्ते वि केनाट् जस्ट् ट्रान्स्लेट्. आक्चुवल्लि देर् आर् सर्टन् रूल्स् इन् संस्कृत. अहं कार्यानेन कार्यालयं गच्छामि, कार्याने गच्छामि इति न वदामः, कार्यानेन गच्छामि. वदतु.
पञ्चवादने, सायङ्कालं पञ्चवादने गृहम् आगच्छामि. षट्वादिने स्नानं करोमि. सप्तवादने पूजां करोमि. अष्टवादने भोजनं रात्रिभोजनं करोमि. दशवादने शयनं करोमि.
उत्तमम्, उत्तमं महोदय, उत्तमरीत्या लिखितवान् भवान्. अनन्तरं कः श्रावयितुम् इच्छति? कादम्बरी करोतु भगिनि, श्रावयतु.
अहं सार्धषड्वादने उत्तिष्ठामि. अनन्तरम् अहं स्नानं करोमि. सप्तवादने अहं प्रार्थनां करोमि. पादोनसप्तवादने अहं भागवतमहापुराणं करोमि.
वदतु.
अष्टवादने अहं सङ्गीत अभ्यासम् अहं करोमि.
उत्तमं भगिनि. अनन्तरं किं करोति?
अनन्तरम् अहं खादामि. सार्ध अष्टवादने अहं केशप्रसादनं करोमि. पञ्चन्यून अष्टवादने अहं पादरक्षां धारयामि. अनन्तरम् अहं पाठशालां गच्छामि.
उत्तमम्. इतोपि लिखितवती वा?
आम्.
श्रावयतु.
तावदेव.
तावदेव. अन्य केपि के वक्तुमिच्छति? राजी अत्र समीर महोदय, भवान् कृतवान् वा? नो चेत् अधुना वयं यदि भवन्तः वक्तुमिच्छन्ति चेत् वदन्तु, नो चेत् अग्रे गच्छेम. सुबारो महोदय, भवान् कर्तुम् इच्छति वा? नो चेत् अधुना वयं किं कुर्मः इत्युक्ते, गृहपाठरूपेण अहं इतोपि अन्यं गृहपाठम् अपि दत्तवती, पाकशालासम्बन्धीनि वस्तूनि अपि च गृहसम्बन्धीनि पदानि अपि दत्तवती. तानि पदानि दृष्ट्वा कानिचन नूतनानि अपि च कुतूहलजनकानि वाक्यानि रचयन्ति इति अहम् उक्तवती. यदि भवन्तः लिखितवन्तः चेत् श्रावयन्तु. Did you try the second homework? श्रावयतु भगिनि.
घटस्य जलं चषकेन अस्ति वा? बाष्पस्थाले अनिलचुल्याः उपरि अस्ति.
बाष्पस्थाली अनिलचुल्याः उपरि अस्ति. उत्तमं. सर्वे शृण्वन्तु. अत्र भगिनी उत्तमानि वाक्यानि लिखितवती, अत्र सर्वे शृण्वन्तु. करोतु.
माता सक्तवर्तिकां अग्निपेटिकया ज्वालयतु.
ज्वालयतु. उत्तमम्.
मम गृहे एकविंशतिः चमसाः सन्ति.
एकविंशतिः चमसाः सन्ति. उत्तमम्.
भवान् कूपीम् आदानिकायाः उपरि स्थापयतु.
कूपीम्
आदानिकायाः उपरि स्थापयतु.
उत्तमम्.
तावदेव.
उत्तमम्. अन्ये केपि लिखितवन्तः वा? श्रावयन्तु. If you have already written certain sentences, please make us listen. Read them. Read your sentences. No chet, vayam kim kurmah ichukte, sarve ashtadeshe pute, sarve pashyantu. Abhyasa pustake ashtadeshe pute, tatra pakashala sambandhini vastuni santi. Sarve pashyantu. Adhuna vayam kinchit abhyasam kurmah. अत्र सुब्बाराव महोदय, भवान् करोति वा? अत्र प्रथमं चित्रं, प्रथमं चित्रं किम्?
कः?
चषकः. चषकः इति पदस्य बहुवचनरूपं किं वदतु महोदय? बहुवचनं जानाति वा? कः वदति? अत्र पाकशालासम्बन्धीनि वस्तूनि दत्तानि. अत्र नो चेत् लक्ष्मी भगिनी भवती वदति वा चषकः इत्यस्य? चषकाः. अनन्तरं भवती एव वदतु अत्र चषकः इति पदस्य लिङ्गवचनरूप विभक्तिः वदतु. लिङ्गं किं, वचनं किं, विभक्तिः का, जानाति वा?
लिङ्गं पुल्लिङ्ग, विभक् प्रथमविभक्ति.
वचनं?
एकवचनं.
उत्तमं. बहुवचनरूपं किं?
चषकाः.
उत्तमम्. अनन्तरं द्वितीयं चित्रं किं?
चमसः.
बहुवचनरूपं वदतु.
चमसाः.
तृतीयं चित्रं?
घटः, घटाः.
चतुर्थं?
मन्थानः,
मन्थानाः. मन्थानाः. उत्तमं. भवती सर्वनामपदम् अपि योजयित्वा वाक्यं रचयतु. एषः चषकः अथवा सः चषकः, तथा वदतु.
एषः चषकः, एषः सः चषकः.
द्वितीयम्?
एषः चमसः, सः चमसः.
तृतीयम्?
एषः घटः, सः घटः.
चतुर्थम्?
एषः मन्थानः, सः मन्थानः. ऐ हेव् अ सेण्टेन्स् फार् द फस्ट् वन्.
वदतु, वदतु भगिनि.
प्रतिदिनम् अहं षष्ठवादने एकं चषकः काफी पिबामि.
किञ्चित् समीकरोतु वाक्यं. प्रतिदिनं प्रतिदिनं प्रातः षड्वादने एकं चषकमितं चायं पिबामि. अनन्तरं अत्र पञ्चमं चित्रं किं वदतु?
करण्डकः.
करण्डकः. बहुवचनरूपं किं?
करण्डकाः.
करण्डकाः. प्रश्नवाचकपदम् उपयुज्य वाक्यं रचयतु.
किं करण्डः? कः करण्डः?
एषः कः? कः करण्डकः? कः करण्डकः?
एषः करण्डकः.
एषः करण्डकः. अनन्तरं करण्डकः बहुवचनं वदतु.
करण्डकाः.
अनन्तरम् अग्रे पठतु.
पात्रं.
बहुवचनं किं?
पात्राणि.
पात्राणि, उत्तमम्. अनन्तरम् अग्रे.
मिश्रकं.
बहुवचनं किं?
मिश्रकमानि.
प्रयत्नं करोतु. अत्र मिश्रकम् इति अस्ति. मिश्रकम् इति पदस्य बहुवचनरूपं
कः वदति?
अत्र मिश्रकाणि.
काणि.
अत्र किमर्थं काणि इत्युक्ते तत्र रेफः अस्ति, अतः मूर्धन्यणकारादेशः भवति. मिश्रकाणि न, तत्तु समीचीनं रूपं नास्ति. मिश्रकाणि. अनन्तरम् अग्रिमं चित्रं किम् अस्ति?
पेषकं.
बहुवचनं वदतु.
पेषकाणि.
प्रश्नवाचकवाक्यं रचयतु.
कः पेषकम्? एषः पेषकम्.
चिन्तयित्वा वदतु भगिनि. मिश्रकं, पेषकम्.
शेषकम्. एषा केषकम्.
न, कः वदति अत्र बहुव तत्र प्रश्नवाचकपदं किं भवति? नपुंसकलिङ्गे प्रश्नवाचकपदं किम्? कादम्बरी भगिनी भवती वदति वा?
किं
किम् अत्र एकं लघुवाक्यं रचयतु. प्रश्नवाचकवाक्यं. एतत् किम्? पेषकं यन्त्रमस्ति. तत् यन्त्रं पेषणं करोति. इट्स् अ ग्रैण्डर्, रैट्? पेषणं करोति. अत्र अत्र एतत् किं, तत् किम् इति प्रश्नं पृच्छामः चेत् तत्र उत्तरं किमस्ति? एतत् पेषकम्, एतत् मिश्रकम्, एतत् पात्रम्. पात्रम् इति पदस्य बहुवचनरूपं किम्?
पात्राणि.
पात्राणि, उत्तमं. धन्यवादः भगिनि. अधुना सुबारो महोदय, भवान् करोति वा?
आम्.
वदतु महोदय. अत्र अग्रिमं चित्रं किम् अस्ति?
स्थालिका.
स्थालिका. बहुवचनरूपं किम्? स्थालिका इति पदं लिङ्गवचनविभक्तिः जानाति वा? लिङ्गं किं, वचनं किं, विभक्तिः का?
स्त्रीलिङ्गम् एकवचनं, प्रथमाविभक्ति.
प्रथमाविभक्ति. बहुवचनरूपं किं? स्थालिकाः.
स्थालिका.
अनन्तरम् अग्रिमं चित्रं किं?
छुरिका.
बहुवचनं किं?
छुरिकाः.
अग्निपेटिका.
अग्निपेटिका. अग्निपेटिकाः.
सिक्थवर्तिका.
सिक्थवर्तिकाः.
अत्र सिक्थम् इत्युक्ते किं जानाति वा?
सिक्थं केण्डल्.
सिक्थम् इत्युक्ते वेक्स्. वेक्स्. अनन्तरं यदि भवान् कर्तुमिच्छति चेत् अत्र, तत्र, अन्यत्र, सर्वत्र, एकत्र, कुत्र, एतेषु पदेषु अन्यतमं पदम् उपयुज्य वाक्यं रचयतु. अत्र, तत्र, अन्यत्र, तथा किञ्चित् पुनस्मरणे रूपेण पठामः.
स्थालिका अत्र अस्ति.
अनन्तरं
छुरिका कुत्र अस्ति?
अनन्तरम्
अग्निपेटिका कुत्र?
अन्यत्र
अन्यत्र अग्निपेटिका अन्यत्र अस्ति.
अनन्तरम् इतोपि अन्यं वाक्यं
सिक्तवर्तिका वाट् इस् इट् विल् गिव् ब्रैट्नेस् एव्रिवेर्
न न महोदय अत्र केवलम् अत्र केवलम् अत्र तत्र अन्यत्र सर्वत्र कुत्र पदानि योजयित्वा एतेषु अन्यतमं पदं वन् अमाङ्ग् दीस् फ्यू वर्ड्स् जस्ट् टु क्रियेट् अ सेण्टेन्स्
रैट् सिक्तवर्तिका सर्वत्र दीपं
प्रकाशयति उत्तमम्. अनन्तरम् अग्रिमं चित्रं किम् अस्ति अत्र
आधानिका
इत्युक्ते किं जानाति वा
ट्रे
ट्रे आम् अनन्तरं बहुवचनरूपं किम् अनन्तरम्
अनिचुल्लिका अनिलचुल्लि अनिलचुल्लिः
चुल्यः इति भवति बहुवचनचुल्यः. अनन्तरं द्रोणी पदस्य
द्रोण्यः.
अनन्तरं
दर्वी दर्व्यः.
अधुना भवान् अस्ति नास्ति इति पदद्वयं योजयित्वा वाक्यं रचयतु. अस्ति नास्ति
मम गृहे आधानिका नास्ति.
उत्तमम्. अनन्तरं इतोपि अन्यत् वाक्यं
मम गृहे अनिलचुल्लिः अस्ति. अनिलचुल्लिः अस्ति
चुल्लिः अस्ति उत्तमम्. अनन्तरं
चुल्लिः अस्ति अहं द्रोणी उपयुज्य जलम् आनयति आनयामि.
उत्तमं. किञ्चित् समीकरोतु. अत्र अहं द्रोणीम् उपयुज्य
जलम् आनयामि.
उत्तमं. दर्वी उपयुज्य एकं वाक्यं रचयतु.
दर्वी उपयुज्य अन्नं प्रेषयति.
अन्नं परिवेषयामि. अत्र दर्वी इत्युक्ते सर्विङ्ग् स्पून्. सो दर्व्या अत्र सर्वे शृण्वन्तु. अत्र दर्वी इति पदस्य तृतीयरूपं किं भवति इत्युक्ते दर्व्या अन्नं परिवेषयामि. दर्व्या अल्पाहारं परिवेषयामि. परिवेषणम् इत्युक्ते सर्विङ्ग्. दर्व्या अल्पाहारं परिवेषयामि. वदतु.
दर्व्या उपयुज्य अन्नं परिवेषयामि.
दर्व्या परिवेषयामि अथवा दर्वीम् उपयुज्य. देट् मीन्स् देर् आर् टु वेस् यु केन् से दिस् सेम् सेण्टेन्स्. दर्व्या परिवेषयामि अथवा दर्वीम् उपयुज्य अन्नं परिवेषयामि. उत्तमम्. अनन्तरम् अत्र अन्तिमं अत्र अग्रिमं चित्रं किम् अस्ति
बाष्पस्थाली.
अत्र पश्यतु महोदय, द्रोणी इति पदस्य बहुवचनं किं?
द्रोण्यः.
दर्वी
दर्व्यः.
उत्तमं. बाष्पस्थाली
बाष्पस्थाल्यः.
अनन्तरं
कूपी कूप्यः.
उत्तमं. वेलनी
वेलनी वेलन्यः.
अन्तिमं चित्रं किं?
चषकादानी चषकादान्यः.
उत्तमं. भवान् एव किञ्चित् वदतु. आवश्यकं मास्तु पर्याप्तम्. अत्र पदत्रयमस्ति. आवश्यकं मास्तु पर्याप्तम् इति पदत्रयम् उपयुज्य त्रीणि वाक्यानि रचयतु. किञ्चित् अभ्यासः भवति अस्माकं कृते. आवश्यकं मास्तु पर्याप्तं.
मम गृहे बाष्पस्थली आवश्यकम्.
मम गृहे उत्तमं.
मम गृहे भोजनं
भोजनं पचनार्थं अत्र अहम् अन्नं पचामि. ऐ एम् कुकिङ्ग् फुड्. अहम् अन्नं पचामि. अत्र भवान् किं वक्तुमिच्छति? मम गृहे भोजनं पचनार्थं बाष्पस्थाल्याः
आवश्यकं.
बाष्पस्थाली आवश्यकम् अथवा बाष्पस्थाल्याः आवश्यकता अस्ति. अत्र पश्यतु, बाष्पस्थाली आवश्यकम् इति अपि समीचीनं. नो चेत् बाष्पस्थाल्याः आवश्यकता अस्ति. तत्र बाष्पस्थाली इति पदस्य षष्ठीविभक्तेः रूपम् उपयुज्य वाक्यरचनां कुर्मः तत्र. अनन्तरं मास्तु एकं वाक्यं रचयतु. मास्तु
रोटिकां तयारयामि. वेलनी आवश्यकम्.
रोटिकां निर्मातुं वेलनी आवश्यकम्.
उत्तमम्.
किमपि वाक्यं, किमपि अन्यं वाक्यं वदतु. मास्तु मास्तु इति. मम अत्र पश्यतु, मम अधुना मम बुभुक्षा नास्ति, अतः अहम् अन्नं न खादामि. मास्तु अहं न खादामि.
यूसिङ्ग् मास्तु वितौट् दि एनी सेण्टेन्स् यु वाण्ट्
एनी. किमपि वाक्यं.
ओके, किमपि वाक्यं. मम गृहे दूरदर्शनं मास्तु.
मम गृहे अहं दूरदर्शनं न पश्यामि, अतः तस्याः आवश्यकता एव नास्ति. अतः अहं मास्तु इति, भवान् मास्तु इति वदति. अस्तु. अनन्तरं पर्याप्तम् इति उपयुज्य एकं वाक्यं रचयतु. कः वक्तुं वदतु महोदय, वदतु.
मम पार्श्वे
पर्याप्तं धनमस्ति. मम पार्श्वे पर्याप्तं धनमस्ति. इतोपि मास्तु. भवतः पार्श्वे पर्याप्तं धनमस्ति. उत्तमम्. अनन्तरम् अत्र षष्टिविभक्तेः उपयोगं कृत्वा वाक्यद्वयं रचयतु महोदय. इदानीं पर्यन्तं वयं षष्टिविभक्तेः उपयोगं कृत्वापि कानिचन वाक्यानि, विभक्तिः का इति वयं जानीमः. अतः इदानीं पर्यन्तं वयं अत्र तत्र कुत्र सर्वत्र अन्यत्र अपि च अस्ति नास्ति, अनन्तरम् आम् आम् न वा आम् इति उपयुज्य वदतु एकं वाक्यम्. आम्
आम् आम् आम् अहं संस्कृतं पठामि.
अहं संस्कृतं पठामि. तत्र आम् प्रथमतया एकं प्रश्नं पृच्छतु. अहं संस्कृतं पठामि वा न वा?
आम् अहं संस्कृतं पठामि.
उत्तमम्. अहं संस्कृतं पठामि वा न वा? न इत्युक्ते अत्र तत्र तस्य उत्तरं किं भवति? आम् अहं संस्कृतं पठामि.
अहं संस्कृतं पठामि.
भवान् दूरदर्शनं द्रष्टुमिच्छति वा?
न, अहं दूरदर्शनं पश्यतु न इच्छामि.
अहं दूरदर्शनं द्रष्टुं न इच्छामि.
द्रष्टुं न इच्छामि.
उत्तमं. तथा एव अत्र षष्टिविभक्तेः उपयोगं कृत्वा कानिचन वाक्यानि रचयतु. अत्र चषकः, चषकः इति पदस्य षष्टिरूपं किम्? चषकस्य. अनन्तरं चमसः षष्टिरूपं किम्?
चमसः.
चमसः षष्टिरूपं किं? चमसस्य. उत्तमं. अत्र तथा घटः, घटः इति पदस्य षष्टिरूपं घटस्य. उत्तमं. मन्थानः. मन्थानस्य. भवान् जानाति एव षष्टिविभक्तेः रूपं किं भवति पुंलिङ्गपदानां विषये. चषकस्य, चमसस्य, घटस्य तथा. चषकस्य इति पदम् उपयुज्य एकं वाक्यं रचयतु.
अहं चषकस्य उपयुज्य काफी पिबामि.
तत्र किं वदामः? अहं चषकम् उपयुज्य काफीं पिबामि. द्वितीयाविभक्तेः रूपमस्ति परन्तु न तु षष्टि. यु हेव् यूस्ड् द सेकेण्ड् केस् नाट् द सिक्स्त् केस्. चषकस्य कः वदति? चषकस्य इति पदम् उपयुज्य एकं वाक्यं रचनीयं. कः वदति? कः प्रयत्नं करोति?
अहं प्रयत्नं करोमि.
करोतु भगिनी. धन्यवादः महोदय. अन्यथा मा चिन्तयतु. भगिनी भवती करोतु.
चषकस्य उपयोगेन काफी पिबामि.
चषकस्य उपयोगेन बहु बृहत् वाक्यं भवति परन्तु चषकस्य उपयोगं करोमि. चषकस्य उपयोगेन काफीं पिबामि. ओ अस्तु. नो चेत् चषकस्य मूल्यं किम्? लघुवाक्यम्. अवगच्छति वा भगिनी? सर्वे शृण्वन्तु. अत्र शृण्वन्तु. चषकस्य मूल्यं किं? चमसस्य मूल्यं किं? चषकस्य वर्णः कः? चमसस्य परिमाणं किं? घटस्य, घटस्य मूल्यं किं? मन्थानस्य मूल्यं किम्? अथवा मन्थानस्य वर्णः कः? That's how we can use Shasti Vibhakti when you want to create some sentences. Chashakasya, Chamasasya, Ghatasya, Manthanasya. Bhagini, Kadambari Bhagini, Bhavati Vadatu, Shasti Vibhakti Hirupam, Karandakaha.
Karandakasya.
Uttamam. Patram.
Patrasya.
Mishrakam.
Mishrakasya.
Peshakam.
शेषकस्य.
स्थालिका.
स्थालिकायाः.
छुरिका.
छुरिकायाः.
अग्निपेटिका.
अग्निपेटिकायाः
सिक्तवर्तिकायाः उत्तमम् आधानिकायाः अनिलचुल्लिः वदतु
अनिलचुल्ल्याः
उत्तमं द्रोणी
द्रोण्यः
द्रोण्याः उत्तमं दर्वी
दर्व्याः बाष्पस्थाल्याः
कूपी
कूप्याः
वेलनी
वेलन्याः
चषकाधानी
चषकाधान्याः
उत्तमं धन्यवादः भगिनी. इदानीं पर्यन्तं वयं किञ्चित् पुनस्मरणरूपेण वयं पठितवन्तः. एतानि सर्वाणि अपि पुरातनानि विषयानि एव. अधुना वयम् अग्रे गच्छेम. अभ्यासपुस्तके अत्र किम् अस्ति इति पश्यामः. यदि भवन्तः कानिचन नूतनानि कुतूहलजनकानि वाक्यानि रचितवन्तः चेत् श्रावयन्तु, अहं श्रोतुमिच्छामि अद्य. इफ् यु हेव् एनी इण्ट्रेस्टिङ्ग् सेण्टेन्सेस् रिगार्डिङ्ग् दीस् वर्ड्स् ऐ वुड् लैक् टु लिसन् फ्रम् यू. एनी इण्ट्रेस्टिङ्ग् सेण्टेन्सेस्, नो चेत् अग्रे गच्छेम. उत्तमम्. अनन्तरम् अत्र सर्वे नवदशे पुटे पश्यन्तु. नवदशे पुटे इत्युक्ते पेज् 19 अभ्यासपुस्तके नवदशे पुटे किम् अस्ति अत्र पश्यामः. अत्र लक्ष्मी भगिनी, इदानीं पर्यन्तं यस्य कस्यापि क्रमः न आगतः वा? डिड् आल् आफ् यू गेट् अ चान्स् टु पार्टिसिपेट् इन् द क्लास्? अत्र लक्ष्मी भगिनी भवती करोति वा? अत्र नवदशे पुटे तस्य नामचतुष्टयम् अस्ति. अन्य नाम वदति वा? केन् यु टेल् मी द अदर् नेम् फर् 19? पेज् 19 मृतवती वा? नवदशे पुटे ऊनविंशतितमे पुटे एकोनविंशतितमे पुटे इत्यपि वयं वक्तुं शक्नुमः. अत्र शीर्षिका अस्ति. शीर्षिका किं पठतु?
बहुवचनं.
सूचनां पठतु.
रिक्तेषु स्थलेषु बहुवचनरूपाणि लिखतु. एकवचनं बहुवचनं. बालकः बालकाः. शिक्षकः शिक्षकाः. चषकः चषकाः. घटः घटाः. चमसः चमसाः.
उत्तमम्. अनन्तरं
बालिका
करोतु.
बालिका बालिकाः. चूरिका चूरिकाः. स्थालिका स्थालिकाः. अग्निपीठिका अग्निपीठिकाः. स्तिक्तवर्तिका स्तिक्तवर्तिकाः.
अनन्तरं
फलं फलानि. वनं वनानि. फेनकं फेनकानि.
उत्तमं.
गृहं गृहाणि.
गृहाणि.
वस्त्रं वस्त्राणि.
अनन्तरं
लेखनी लेख्यः.
पुनः
लेखन्यः.
उत्तमम्.
अङ्किनी अङ्कन्यः. समर्जनी समर्जन्याः.
भगिनी अत्र पश्यतु. अत्र पश्यतु. सम्मार्जनी
सम्मार्जनी सम्मार्जन्याः. द्रोणी द्रोण्याः.
भगिनी अत्र पश्यतु. सम्मार्जनी बहुवचनं किं भवति? किञ्चित् समीकरोतु. यदि सम्मार्जन्याः इति भवती वदति चेत् तत्तु असमीचीनं रूपं भगिनि. किमर्थमित्युक्ते सम्मार्जनी सम्मार्जन्यः
सम्मार्जन्यः
भवती किम् उक्तवती सम्मार्जन्याः इत्युक्ते okay. तदा षष्टिविभक्तेः रूपं भवति. पुनः वदतु तदेव समीकृत्य वदतु.
सम्मार्जनी सम्मार्जन्यः
उत्तमम्. अनन्तरं
द्रोणी द्रोण्यः
उत्तमम्. सम्मार्जन्य वयं मार्जनं कुर्मः. ब्रूम् महोदय अवगच्छत् अवगतवान् वा? सम्मार्जन्य वयं गृहस्य मार्जनं कुर्मः. गृहं मार्जयामः. गृहं वा किमपि किमपि सम्मार्जनमित्युक्ते शुद्धं कुर्मः. सम्मार्जन्या एकं वाक्यं रचयतु भगिनि. सम्मार्जनी इति वा पदम् उपयुज्य वाक्यं रचयतु.
सम्मार्जनेन गृहं क्लीन्
मार्जनं
शुभ्रं करोमि.
मार्जनं करोमि. अत्र पश्यतु भगिनि सम्मार्जन्या कः वदति सम्मार्जन्या इति तस्य विभक्तिः का? Which case is that one? Samarjanya is a third case. Tritiya vibhakti. Aham Samarjanya Gruhasya Marjanam Karomi. Adhava Aham Samarjanya Gruham Marjayami. Uttamam. Droni. Droni iti padasya. Padam upayaji eka vakyam rachetum bhagini. Droni.
द्रोणी जलं
तदेव वदतु.
फिल् द वाटर् फिल् द
बकेट् करोतु. प्रयत्नं करोतु. सम्यक् एव प्रयत्नं करोतु. अहं द्रोण्या
जलम्
जलम् आनयामि.
आनयामि. ओके ब्रिङ्ग्
करोतु वाक्यं. तदेव वाक्यं वदतु. पुनः वदतु.
अहं द्रोण्या अहं द्रोण्या जलम् आनयतु आनयामि.
आनयामि. अहं द्रोण्या जलम् आनयामि. उत्तमं. कूपी. कूपी इति पदम् उपयुज्य एकं वाक्यं रचयतु.
What does कूपी mean? Bottle?
काचकूपी. काचकूपी इत्युक्ते ग्लास् बाटल्. वदतु.
मम गृहे कूपी अस्ति.
मम गृहे एका कूपी अस्ति. उत्तमम्. एका कूपी अस्ति. उत्तमं भगिनी. धन्यवादः. अत्र समीर् महोदय भवान् करोति वा? अत्र अधोभागे 4.2 आभागे कानिचन पदानि सन्ति. तानि कानि इति पश्यामः. वि नीड् टु नो वाट् दोस् वर्ड्स् आर्. समीर् महोदय
4.2
आ भागे तत्र करोतु.
स सः इस् मस्कुलैन् इस् हि. सा इस् फेमिनिन् षि. तत् इस् न्यूटन् इट्.
अनन्तरम् नो चेत् अत्र केवलं पठतु महोदय, एकवारं पठतु, अनन्तरं वयं चिन्तयामः तानि कानि इति. वयं लेटर् वि विल् ट्रै टु अण्डर्स्टाण्ड् वाट् दोस् वर्ड्स् आर्. फस्ट् रीड्. वदतु महोदय.
सः, सा, तत्, ते, ताः, तानि, एषः, एषा, एतत्, एते, एताः, एतानि, कः, का, किं, के, काः, कानि.
उत्तमम्. अत्र महोदय, अत्र अत्र कथं पठनीयम् इत्युक्ते, सः, ते, सः इति पदम्, एतानि सर्वाणि पदानि अपि सर्वनामपदानि. दिस् आर् आल् प्रोनौन्स्. ओके, अत्र इदानीं पर्यन्तं वयं सः, एषः, कः, सा, एषा, एतानि पदानि जानीमः. परन्तु अत्र किं दत्तमस्ति इत्युक्ते, सः इति पदं प्रथमाविभक्तौ एकवचनं, परन्तु बहुवचनरूपं दत्तमस्ति. सः इति पदस्य बहुवचनरूपं किं वदतु? ते. सः इति पदस्य बहुवचनरूपं ते. एषः इत्यस्य बहुवचनं किम्?
एते.
उत्तमं. कः इत्यस्य?
के.
उत्तमं. सा इति यथा भवान् जानाति, सा इति पदं त्रिलिङ्गे सर्वनामपदं. सा इत्यस्य बहुवचनरूपं किम्?
ताः.
उत्तमम्. एषा?
एताः.
उत्तमं. का?
काः.
तत्?
तानि.
उत्तमम्. एतत्?
एतानि.
किं?
कानि.
उत्तमम्. अनन्तरं अग्रिमे पुटे किम् अस्ति इति वयं पश्यामः. अग्रिमं पुटं प्रति गच्छामः. भवान् पठतु महोदय. अत्र विंशतितमे पुटे
पूर्वातनकोषकस्य सहायेन सहायेन रिक्तस्थलानि पूरयतु.
पूरयतु. भवान् जानाति वा, अत्र अवगतवान् वा, अत्र किं दत्तमस्ति? पूर्वतनकोष्टकस्य साहाय्येन रिक्तस्थानानि पूरयतु. पूर्वतनकोष्टकम् इत्युक्ते द टेबल् दट् इस् गिवन् इन् द प्रीवियस् पेज्. यु आर् सपोस् टु यूस् द पेज् टु फिल् दिस् ब्लाङ्क्स्.
ओके.
पूर्वतनकोष्टकस्य साहाय्येन रिक्तस्थलानि पूरयतु. प्रयत्नं करोतु. अत्र उदाहरणं दत्तमस्ति. उदाहरणं पठित्वा अन्यानि वाक्यानि रचयतु.
एते बालकाः.
एकवचने वदतु महोदय. एते बालकाः इति वाक्यमस्ति. एकवचने किं वदामः? इफ् यु वाण्ट् टु क्रियेट् ए सेण्टेन्स् इन् ए सिङ्गुलर्.
एषः बालकः.
उत्तमम्. बहुवचनं एते बालकाः. द्वितीयं करोतु. अनन्तरं
एते
चषकाः.
एते चषकः.
एते चषकाः. एकवचनं वदतु.
एषः चषकः.
उत्तमं. तृतीयम्.
एते पुस्तकानि.
पुनः
पूर्वत्रिलिङ्ग.
अत्र महोदय, अत्र पुस्तकानि इति नपुंसकलिङ्गपदं बहुवचने अस्ति. पूर्वतनकोष्टकं पश्यतु. पूर्वतनपुटे कोष्टकमस्ति. कोष्टकस्य आधारेण एव भवान् कर्तुं शक्नोति. नो चेत् करोतु.
एताः पुस्तकानि.
समीकरोतु महोदय. एताः इति स्त्रीलिङ्गपदं, परन्तु अत्र पुस्तकानि अस्ति. पुस्तकानि इति पदस्य एकवचनं किम्?
पुस्तकः
पुनः चिन्तयतु पुस्तकानि यथा यथा फलफलानि
एतानि पुस्तकानि
उत्तमम् एकवचनं वदतु
एतत् पुस्तकम्
उत्तमम् अनन्तरं अत्र पदं किं दत्तमस्ति
स्थालिकाः
स्थालिकाः इति स्त्रीलिङ्ग बहुवचनरूपम्
एते स्थालिकाः
किञ्चित् समीकरोतु महोदय स्थालिकाः स्थालिकाः स्त्रीलिङ्गबहुवचनरूपम् एताः स्थालिकाः
एताः स्थालिकाः
एकवचनं वदतु
एषाः स्थालिकः
एकवचने वदतु क्रियेट् द सेण्टेन्स् इन् द सिङ्ग्युलर् नम्बर् इट् वास् गिवेन् इन् द प्लूरल् नम्बर् वदतु
एषः स्थालिकः
तत्र महोदय स्थालिकाः इति स्त्रीलिङ्गबहुवचनरूपम् एकवचने किं वदामः स्थालिका
स्थालिका ओके
स्थालिका स्थालिकाः आकारान्तस्त्रीलिङ्गपदम् करोतु अत्र स्त्रीलिङ्गे एकवचनरूपम् एकवचनं सर्वनामपदं किं दत्तमस्ति पूर्वतनकोष्टके
Today I don't have any notes with me, so I'm a little bit lost.
Astu Mahodaya.
Okay. I think I will try next time.
Uttama Mahodaya. Anantaram, yadi Raju Mahodaya Bhavan kartum ichyati va?
Eta vaspasthalyaha.
Eta vaspasthalyaha. Eka vachane vadatu?
Esa vaspasthali.
उत्तमम् अत्र प्रश्नवाचकवाक्यं दत्तमस्ति प्रश्नवाचकवाक्यं रचयतु पूर्वतनकोष्टकं पश्यतु महोदय तत्र प्रश्नवाचकपदानि सन्ति एषा का उत्तमम् एकवचने एषा का एषा का तस्य उत्तरं किम्
एषा वाष्पस्थाली
उत्तमं बहुवचने वदतु
एताः वाष्पस्थाल्यः
प्रश्नवाचकवाक्यं एताः काः
एताः वाष्पस्थाल्यः
उत्तमम् एताः बाष्पस्थाल्यः उत्तमं महोदय अनन्तरं करोतु
अग्निपेटिकाः एताः अग्निपेटिकाः
एकवचने वदतु
एषः अग्निपेटिका
किञ्चित् समीकरोतु पुनः एकवारं तदेव वदतु तदेव वाक्यम्
एषा अग्निपेटिका
उत्तमम् अनन्तरम् अग्रिमं पठतु
एतः घटः
अत्र पश्यतु महोदय घटाः इति पदमस्ति घटाः घटाः एकवचनरूपं किम्
एषा घटः
अत्र पश्यतु घटः घटः पुंलिङ्गरूपं घटः पुंलिङ्गपदम् अतः घटाः बहुवचनरूपम् इदानीं करोतु पुंलिङ्गपदम्
घटः
घटः पुंलिङ्ग घटः पुंलिङ्गपदं
घटाः एते घटाः
उत्तमम् एकवचनं वदतु
एषः घटः
उत्तमम् अग्रिमम्
एताः सम्मार्जनः
एकवचने
एषा सम्मार्जनः सम्मार्जनी
उत्तमम् 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 एकवचने सम्मार्जनी बहुवचनं सम्मार्जन्यः उत्तमं महोदय अनन्तरम् अन्तिमं करोतु
वस्त्राणि एतानि वस्त्राणि
एतानि वस्त्राणि अथवा यु केन् क्रियेट् अ सेण्टेन्स् लैक् तानि वस्त्राणि एतानि वस्त्राणि यु केन् क्रियेट् इन् बोत् वेस् अथवा तानि वस्त्राणि
This is a question mark, right? So kani vastrani.
Uttamam. Ekvachane vadatu. Tadeva vakyam. Prashnavachaka vakyam.
Kim vastram.
Uttamam. Uttamam. Tavadeva. Anantaram karotu. Kartum ichyati va? Bhavan. Bhavan eva kartum ichyati chet karotu. 4.2 ई भागे किम् अस्ति
बहुवचनरूपाणि लिखतु
उदाहरणं पठतु
उदाहरणं एषः जनः एते जनः
पुनः एते जनाः
एते जनाः
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 उत्तमम् एते जनाः उत्तमम् अनन्तरं करोतु
एषा महिला एताः महिलाः
एताः महिलाः अनन्तरम्
एताः मल्याः एताः महिलाः
उत्तमं
तत् उपनेत्रम्
बहुवचने
तानि उपनेत्राणि
तानि उपनेत्राणि एतत् उपनेत्रं बहुवचनं किम्
उपनेत्राणि
एतानि उपनेत्राणि एतानि उपनेत्राणि अत्र अत्र परन्तु यद् भवान् उक्तवान् तत्तु समीचीनमेव वाट् एवर् यु हेव् सेड् इट्स् अब्सल्यूट्लि रैट् तत् उपनेत्रं तानि उपनेत्राणि एतत् उपनेत्रम् एतानि उपनेत्राणि उत्तमम् अनन्तरं
किं फलं कानि फलानि एतत् गृहम् एतानि गृहाणि
एतानि गृहाणि प्रश्नवाचकवाक्यं रचयतु
कानि गृहाणि
उत्तमम् एकवचने वदतु
किं गृहम्
उत्तमम् अनन्तरं करोतु
कः जनः के जनानि
अत्र कः जनः कः जनः जनः इति पदं पुंलिङ्गपदम् करोतु बहुवचने किं वदामः
के जनाः
उत्तमम् अग्रिमं करोतु
सा स्थालिका ता स्थालिकाया
समीकरोतु महोदय
ताः स्थालिकाया
ताः स्थालिकाः केवलं बहुवचनं ताः स्थालिकाः उत्तमं. यदि स्थालिकायाः इति वदामश्चेत् षष्टिविभक्तिरूपं भवति, परन्तु अत्र वयं केवलं प्रथमाविभक्ति बहुवचनरूपम् एव इच्छामः. हियर् वी वाण्टेड् ओन्ली द फस्ट् केस् प्लूरल् नम्बर्. स्थालिकायाः इति वदामश्चेत् इट् विल् बिकम् सिक्स्त् केस्. षष्टिविभक्ति. अनन्तरं करोतु.
सः चंसः. ते चंसाः.
ते चमसाः. उत्तमं.
ते चमसाः. का भगिनी. काः भगिनीः.
अत्र पश्यतु महोदय, भगिनी इति पदस्य बहुवचनं किं भवति? यथा द्रोणी. द्रोणी इति पदस्य बहुवचनं द्रोण्यः. तथा एव वदतु.
काः भगिन्यः.
काः भगिन्यः. काः भगिन्यः. काः भगिन्यः इति पदस्य इति वाक्यस्य उत्तरं किं भवति? केन् यू आन्सर् दिस् क्वश्चन्? काः भगिन्यः? अत्र यदि एकवचने वदतु महोदय, काः भगिन्यः. अत्र काः भगिन्यः इति पदं वाक्यं बहुवचने अस्ति. एकवचने का भगिनी. का भगिनी. का भगिनी इति प्रश्नवाचकवाक्यं. फर् दट् क्वश्चन् हौ यु केन् आन्सर्? वाट् कुड् बि द आन्सर्? अत्र सर्वनामपदानि दत्तानि पूर्वस्मिन् पुटे. In the previous page, you were given some pronouns especially meant for strilingam.
Yes.
Can you use those words and to write an answer for this question?
Okay, bhagni. Sa bhagni. Bhagnyaha.
Taha bhaginyaha. Sa bhagini. Adhava. Yesha bhagini. Adhava.
Yeah. Etaha bhagni.
Etaha bhagni. एताः भगिन्यः. अन्तिमं करोतु.
एषः सैनिकः. एते सैनिकाः.
एते सैनिकाः. उत्तमं. धन्यवादः महोदय. अनन्तरम् अत्र लक्ष्मी भगिनी भवती करोति वा? अनन्तरं किम् अस्ति अत्र? करोतु भगिनि.
भवान् भवन्तः. भवती भवत्यः. अहं वयं. भवान् बालकः. भवन्त्यः बालकाः.
पुनः अत्र पश्यतु भगिनि, अत्र किं कृतवती भवती? भवन्तः बालकः. अग्रिमं पठतु.
भवती बालिका. भवन्त्यः बालिकाः.
किञ्चित् समीकरोतु. अत्र भवती बालिका, तत्र बालिकाः इति अस्ति, रिक्तस्थानमस्ति. रिक्तस्थले किं किं लिखामः? वाट् शुड् बि राइट् इन् दट् ब्लाङ्क्?
भवत्याः बालिकाः.
भवत्यः बालिकाः. भवत्यः बालिकाः. उत्तमं भगिनि. अनन्तरं करोतु.
भवान् युवकः. भवन्तः युवकाः. भवती महिला. भवन्त्यः महिलाः.
भवत्यः महिलाः.
भवत्यः महिलाः.
उत्तमं. भवत्याः महिलाः. अनन्तरम् अत्र अहं योजयित्वा वाक्यं वदतु. अहम्. अहं वयं योजयित्वा वाक्यानि रचयतु. अहं बालिका.
अहं बालिका. वयं बालिकाः. अहं
बालिका.
वयं बालिकाः.
द्वितीयं करोतु. अहं सेकेण्ड् वन्
ओके अहं युवकः, वयं युवकाः.
उत्तमं. तृतीयं करोतु.
अहं महिला, वयं महिलाः.
उत्तमं. भवन्तः सर्वे एकं करपत्रं पश्यन्तु. अहं गते सप्ताहे एकं करपत्रं प्रेषितवती, सर्वनाम्नां द्वितीयाविभक्तिरूपाणि. यदि भवत्याः पार्श्वे करपत्रमस्ति चेत् एकवारं पठतु भगिनी. तत्र एकवचने, बहुवचने, प्रथमाविभक्तिरूपाणि कथं भवन्ति पठति वा? भवत्याः पार्श्वे अस्ति वा?
ओके,
पठतु भगिनी, एकवारं पठामः.
सः तं.
न भगिनि, केवलं इदानीं पर्यन्तं वयं केवलं प्रथमाविभक्तिरूपाणि एव ज्ञातवन्तः. इत्युक्ते प्रथमाविभक्ति एकवचने रूपं किं, प्रथमाविभक्ति बहुवचने तस्य रूपं किं भवति. जस्ट् फोकस् आन् द प्रथमाविभक्ति, डोण्ट् वरि अबौट् द द्वितीयाविभक्ति नौ, बिकास् सो फार् वि आर् एबल् टु अण्डर्स्टाण्ड्, वि आर् एबल् टु अण्डर्स्टाण्ड् ओन्ली प्रथमाविभक्ति. That is why, just to read Pradhama Vibhakti, Ekavachana Rupam, Tasya Bahuvachana Rupam Kim Bhavati, Tadeva Patatu.
Saha Karutu. Te, Yeshaha Ete, Kaha Ke, Sa Taha, Yesha Etaha, Ka Kaha, Tat Tani, Etat Etani, Kim Kani, भवान् भवन्तः, भवती भवत्यः, अहं वयम्.
उत्तमम्, उत्तमं. सर्वे गृहं गत्वा पुनः एकवारं पठन्तु. इदानीं पर्यन्तं वयं केवलम् अभ्यासपुस्तके प्रथमाविभक्तौ एकवचनरूपं किं दत्तमस्ति, तस्य बहुवचनरूपं किं भवति, अत्र अस्मिन् करपत्रे सम्यक् रीत्या लिखितमस्ति. भवन्तः सर्वे गृहं गत्वा एकवारं पठन्ति चेत् भवन्तः सम्यक् रीत्या अवगन्तुं शक्नुवन्ति. इदानीं वयं किं कुर्मः, अस्माकं पार्श्वे एका कथा अस्ति, मधुरायात्रा इति नाम्ना एका लघ्वीकथा अस्ति, कथां पठामः अधुना. कः पठितुमिच्छति अधुना? धन्यवादः भगिनी. कादम्बरी भगिनी, भवती पठितुमिच्छति वा? करोतु.
मधुरायात्रा. भगवान् श्रीकृष्णः गोकुले आसीत्. तदा अक्रूरः तत्र आगच्छति. सः वदति, हे कृष्ण, भवान् मथुराम् आगच्छतु. मातुलः तंसः आयुधपूजार्थम् आह्वयति इति.
उत्तमम्, उत्तमं भगिनि. अत्र उमाशङ्कर महोदय अग्रिमं पठति वा? अग्रिमपरिच्छेदः, अग्रिमं परिच्छेदं पठतु. रीड् द नेक्स्ट् पेराग्राफ्.
या पठितु. वन्स् अगेन्. अक्रूरः वदति, भवन्तौ साधौ भवताम् अगम् ratam anayami. What is it? Sajjau? Sajjau?
Sajjau mahodaya. Anantaram, anantaram chintayamaha. Prathamam ekvaram samyakritya kadham pathamaha. Patana anantaram punah ekvaram takkim pantishah pashyamaha. We'll first
Saga,
read the story.
Ratam anayati. Tada gopikaha tatra agachanti. Taha krishnam वदन्ति, कृष्ण भवान् मथुरां मा गच्छतु, अत्र एव तिष्ठतु, अन्यथा अस्मान् अपि मथुरां नयतु. कृष्णाग वदति, भवत्यग अत्र एव भवन्तु, स्वकार्याणि कुर्वन्तु. सग राधां वदति, भवती चिन्तां मा करोतु, अहं शीघ्रं प्रत्यागच्छामि गोपाग अपि तत्र आगच्छन्ति तदा बलरामग तान् वदति भवन्तग निश्चिन्ताग भवन्तु निश्चिन्ताग भवन्तु स्वकर्तव्यानि निर्वहन्तु आवां शीघ्रं प्रत्यागच्छावग इति यशोदां रोगिणीं च नमस्कृत्य तौ वदतग भवत्यौ दुःखं मा कर्तुं
कुरुताम्
आवां सुखेन प्राज्ञा गच्छावग ततग स्वर्ण सर्वान् नमस्कृत्य तौ स्तेन मथुरां गच्छतग
रथेन मथुरां गच्छतः उत्तमं धन्यवादः महोदय अनन्तरम् अधुना वयं किञ्चित् कथायाः विषये किञ्चित् परिशीलयामः पङ्क्तिशः पश्यामः विल् जस्ट् रीड् लैन् बै लैन् अण्ड् विल् ट्रै टु अण्डर्स्टाण्ड् ईच् सेण्टेन्स् अत्र सुब्बरं महोदय भवान् पठति वा प्रथमवाक्यं किम् अस्ति अत्र
श्रीकृष्णः गोकुले आसीत्
उत्तमम् अत्र भगवान् इति पदमस्ति भगवान् इति पदं तकारान्तपदम् अत्र भगवत् इति प्रातिपदिकात् भगवान् इति पदम् आगतम् अत्र भगवान् श्रीकृष्णः गोकुले आसीत् अहं प्रश्नं पृच्छामि महोदय किञ्चित् वदतु भगवान् श्रीकृष्णः कुत्र आसीत्
भगवान् श्रीकृष्णः गोकुले आसीत्
आसीत् आसीत् इति पदं जानाति वा
आम्
आसीत् इति पदं किं
यूस् टु लिव्
अत्र पश्यतु अस्ति भवान् जानाति एव अस्ति इति पदं जानाति अस्ति इति पदस्य भूतकालरूपम् आसीत् पास्ट् टेन्स् फर् अस्ति भवन्तः सर्वे जानन्ति अस्ति इति पदं जानन्ति अतः अस्थिपदस्य भूतकालरूपम् एव आसीत् भगवान् श्रीकृष्णः कुत्र आसीत्
गोकुले आसीत्
यदि वर्तमानकाले वदतु क्रियेट् द सेण्टेन्स् इन् द वर्तमानकाले
भगवान् श्रीकृष्णः गोकुलम् अस्ति
गोकुले अस्ति
गोकुले अस्ति
अस्ति उत्तमं परन्तु अत्र कथायां तत्र कथायां भगवान् श्रीकृष्णः गोकुले आसीत् भगवान् श्रीकृष्णः कुत्र आसीत्
भगवान् श्रीकृष्णः गोकुले आसीत्
उत्तमं तदा किम् अभवत् तदा द्वितीयं वाक्यं पठतु
तदा अक्रूरः तत्र आगच्छति
कः आगच्छति
अक्रूरः आगच्छति
कुत्र आगच्छति
तत्र आगच्छति
तत्र इत्युक्ते कुत्र
तत्र इत्युक्ते गोकुले
अत्र पश्यतु श्रीकृष्णः गोकुले आसीत् तदा अक्रूरः गोकुलम् आगच्छति अक्रूरः आगच्छति अक्रूरः इति पदं जानीमश्चेत् अक्रूरः इत्युक्ते सः क्रूरः न तत्र समासः अस्ति नै तत्पुरुषसमासः इति वदामः सः क्रूरः न अतः सः अक्रूरः अनन्तरम् आगत्य अक्रूरः किं वदति
सः वदति हे कृष्ण भवान् मथुराम् आगच्छतु
मथुराम् आगच्छतु हे कृष्ण इति रूपं किं
सम्बोधनपदमायुक्ति
उत्तमम् भवान् मथुराम् आगच्छतु अक्रूरः वदति कृष्णं प्रति वदति हे कृष्ण भवान् मथुराम् आगच्छतु आगच्छतु पदस्य रूपं किम्
आगच्छतु आज्ञा
उत्तमम् आज्ञार्थे वा प्रार्थनार्थे वा. अनन्तरं किं वदति अक्रूरः?
मातुलः हंसः आयुधपूजार्थम् आह्वयति इति.
उत्तमम् उत्तमं. मातुलः कंसः आयुधपूजार्थम् आह्वयति. अत्र मातुलः इति पदमस्ति. मातुलः इत्युक्ते किं जानाति वा? अत्र मातुलः पश्यतु, अत्र मात्रातुल्यः, मात्रातुल्यः मातुलः इत्युक्ते मेटर्नल् अङ्कल्. अत्र मेटर्नल् अङ्कल् इस् आल्वेस् ईक्वल् टु माम्, रैट्? It's almost, that means मात्रातुल्यः, मातुलः कंसः, मातुलः कंसः आयुधपूजार्थम् आह्वयति. अत्र कंस, कृष्णस्य मातुलः कः?
कृष्णस्य मातुलः कंसः.
कंसः. कंसस्य भागिनेयः कः?
कंसः भागिनेयः कृष्णः.
भागिनेयः पदं जानाति वा? भगिनी, भगिनी जानाति वा? भगिनी देवकी. उत्तमं महोदय. भगिनी इत्युक्ते कंसस्य भगिनी का?
कंसस्य भगिनी देवकी.
उत्तमं. कंसस्य भागिनेयः कः? भागिनेयः इत्युक्ते भगिन्याः पुत्रः.
कंसस्य भागिनेयः कृष्णः.
उत्तमं. कंसस्य भागिनेयः कृष्णः. परन्तु अत्र कंसः कृष्णस्य मातुलः, सः किमर्थं कृष्णम् आहूतवान्? वै डिड् हि इन्वैट् कृष्ण?
आयुधपूजार्थम् आह्वयति.
आयुधपूजार्थम् आह्वयति. कः उक्तवान् एतत् विषयम्? एतं विषयम् अक्रूरः उक्तवान्. अनन्तरं किम् इतोपि किम् उक्तवान्? वाट् एल्स् हि सेड्?
अक्रूरः वदति, भवन्तौ सज्जौ भवताम्.
भवन्तौ सज्जौ भवताम्.
भवन्तौ सज्जौ भवताम्.
पश्यतु महोदय, अत्र
अहं रथम् आनयामि.
अक्रूरः वदति, अहं रथम् आनयामि, भवन्तः सज्जौ भवताम्. अत्र भवान् यदि जानाति चेत् तत्र रूपं वदतु. भवन्तौ,
भवन्तौ द्वितीया विभक्ति. द्विवचनम्.
उत्तमं. द्विवचनं. भवान् शब्दस्य द्विवचनं किं भवति?
भवन्तौ.
उत्तमं. तत्र प्रथमविभक्तिरूपाणि वदतु महोदय.
भवतः,
भवान्,
भवान्, भवन्तौ, भवन्तः.
उत्तमम्. अनन्तरं द्वितीयं पदं किम् अत्र?
सज्जौ.
सज्जौ इति पदमपि द्विवचने अस्ति.
द्विवचने.
रूपाणि वदतु. सज्जः,
सज्जः, सज्जौ, सज्जाः.
उत्तमं. सज्जः इत्युक्ते जानाति वा? सज्जः इत्युक्ते संस्कृतभाषायां सज्जः इत्युक्ते सिद्धः. आङ्ग्लभाषायां किं वदामः? सिद्धः. गेट् रेडि. समटैम्स् ऐ यूजुवलि से सर्वे सिद्धाः भवेयुः. All of you get ready. अत्र सज्जः, सज्जः इत्युक्ते सिद्धः. परन्तु सज्जः इति पदस्य द्विवचनरूपं दत्तमस्ति. किमर्थं तथा द्विवचनरूपं किमर्थं महोदय अत्र?
अक्रूरः कृष्णः टुगेदर्
इत्युक्ते अत्र अक्रूरः बलरामकृष्णम् अपि च बलरामम् अपि च कृष्णम् उद्दिश्य वदति. इत्युक्ते अत्र बलरामकृष्णौ स्तः. हियर् सो फार् यु आर् नाट् इण्ट्रोड्यूस्ड् बलराम, बट् अक्रूर इस् अड्रेसिङ्ग् बोत्.
ओके,
बोत् बलराम अण्ड् कृष्ण. अतः सः अक्रूरः वदति, भवन्तौ सज्जौ भवताम्. भवताम् इति पदं जानाति वा महोदय? अत्र पश्यतु, यदि एकवचने वदामश्चेत् भवान् सज्जः भवतु, बहुवचनं किं वदामः महोदय?
भवन्तु,
भवन्तः सज्जाः
भवन्तु.
उत्तमं, पुनः वदतु तदेव वाक्यं.
भवन्तः सज्जाः भवन्तु.
उत्तमं,
भवन्तु,
भवन्तः सज्जाः भवन्तु बहुवचने. परन्तु अत्र द्विवचने दत्तमस्ति. द्विवचनरूपं किम्?
भवन्तौ सज्जौ भवताम्.
उत्तमम्, अत्र भवतु, भवतां, भवन्तु इति भवति. अनन्तरं सः किं उक्तवान्? अहं रथम् आनयामि, रथम् आनयामि. इदानीं पर्यन्तम् अवगतवान् वा महोदय?
आम्.
उत्तमं, सर्वे अवगतवन्तः वा? Did all of you understood the story so far?
Yep. Yes.
अनन्तरं समीर महोदय, भवान् करोति वा? नो चेत्
लक्ष्मी भगिनी, ऐ डो नाट् हेव् एनिथिङ्ग् टुडे, सो ऐ एम् जस्ट् अटेंडिंग द कॉल.
उत्तमम्, अस्तु अस्तु महोदय. कादम्बरी भगिनी भवती करोति वा? अत्र कथां समापयामः अतः. अनन्तरं पठतु, एकमेकं वाक्यं स्वीकृत्य वयम् अवगन्तुं प्रयत्नं कुर्मः. अन्यं वाक्यं वदतु.
अक्रूरः वदति, भवन्तौ सज्जौ भवताम्, अहं भवताम्, अहं रथम् आनयामि.
उत्तमं, भवन्तौ सज्जौ भवताम्, एकवचने वदतु.
भवतः, भवान्
सज्जः,
सज्जः
तु
भवतु.
अक्रूरः तथा किमर्थं न वदति? Why he didn't say that? भवान् सज्जः भवतु इति सः न वदति, किमर्थम्?
It's two people.
Two people. ते के? तौ कौ?
कृष्णः, बलरामः.
उत्तमम्. अनन्तरं वाक्यं वदतु.
अहं रथम् आनयामि.
कः रथम् आनयति?
अक्रूरः रथम् आनयति.
उत्तमं, तदा किम् अभवत्?
सः रथम् आनयति.
तदा किम् अभवत्? वाट् हेपेण्ड् देन्?
तदा गोपिकाः तत्र आगच्छन्ति.
गोपिकाः कुत्र आगच्छन्ति?
तत्र आगच्छन्ति.
एकवचने वदतु तदेव वाक्यम्.
तदा गोपिका अत्र आगच्छति.
उत्तमम्, उत्तमं, तावदेव. अनन्तरं गोपिकाः किम् उक्तवन्तः?
कृष्णं वदति, वदन्ति.
ताः कृष्णं वदन्ति. एकवचने वदतु.
कृष्णं वदति.
उत्तमं, सा कृष्णं वदति. परन्तु अत्र गोपिकाः आगच्छन्ति. यदा अक्रूरः रथम् आनयति तदा तत्र गोकुले गोपिकाः सन्ति. गोपिकाः सर्वे तत्र आगच्छन्ति, सर्वाः तत्र आगच्छन्ति. आगत्य किम् उक्तवन्तः कृष्णं प्रति? पठतु, ते किम् उक्तवन्तः?
कृष्ण, भवान् मथुरां न मा आगच्छतु, गच्छतु, अत्र एव तिष्ठतु. अन्यथा अस्मान् अपि मथुरां नयतु.
उत्तमम्, उत्तमं, तथा उक्तवन्तः गोपिकाः. अत्र किम् उक्तवन्तः भवान् मा गच्छतु, नो चेत् वयमपि भवद्भ्यां सह मधुराम् आगन्तुम् इष्टाः. वि आल्सो वाण्टेड् टु कम् वित् यु. यदि भवान् मा गच्छतु, नो चेत् भवान् अस्मान् अपि मधुरां नयतु. अत्र अन्यथा, अन्यथा इति पदमस्ति. अन्यथा इति पदं जानाति वा? अन्यथा इत्युक्ते नो चेत्, अन्यस्मिन् पक्षे. एकपक्षे भवान् मा गच्छतु, अत्र एव तिष्ठतु. यदि भवान् गन्तुमिच्छति चेत् अस्मान् अपि नयतु, वयमपि मधुराम् आगन्तुम् इष्टाः. वयमपि भवद्भ्यां सह मधुराम् आगन्तुम् इष्टवत्यः. वि आल्सो वाण्टेड् टु कम् वित् यू टु मधुरा इति गोपिकाः उक्तवन्तः. तदा किम् अभवत्? कृष्णः किं प्रत्युत्तरं ददाति?
कृष्णः वदति, भवत्यः अत्र एव भवन्तु, स्वकार्याणि कुर्वन्तु. सः राधां वदति, भवती चिन्तां मा करोतु, अहं शीघ्रं प्रत्यागच्छामि.
भवती अवगतवती वा अत्र किं दत्तमस्ति?
आम्
वदतु, स्वस्य वाक्यैः वदतु.
कृष्ण says, you guys stay here, do your duties. Then he says to Radha, you don't worry. I will quickly come back.
उत्तमं भगिनि, तदेव. भवन्तः सर्वे स्वस्य कार्याणि सम्यक् रूपेण कुर्वन्तु, अहं शीघ्रमेव प्रत्यागच्छामि इति उक्तवान्. भगवद्गीतायाम् अपि श्रीकृष्णः तथा एव वदति, सर्वे स्वधर्मं कुर्वन्तु, स्वधर्मो निधनं श्रेयः. आक्चुअलि कृष्ण टोल्ड् अस् आल् आफ़् अस् टु डू अवर् ड्यूटीस् पर्फेक्ट्लि. भगवद्गीतायां वदति स्वधर्मो निधनं श्रेयः, तदेव उक्तवान् अत्र कृष्णः गोपिकां प्रति अपि च राधां प्रति किं वदति कृष्णः? भवन्तः सर्वे स्वस्य कार्याणि कुर्वन्तु सम्यक् रीत्या, अहं पुनः शीघ्रमेव प्रत्यागच्छामि इति सः उक्तवान्. तदा किम् अभवत् भगिनि, पठतु.
गोपाः अपि तत्र आगच्छन्ति, तदा बलरामः तान् वदति, भवन्तः निश्चिन्ताः भवन्तु, स्वकर्तव्यानि निर्वहन्तु, आवां शीघ्रं प्रत्यागच्छावः इति.
उत्तमम्. अत्र भगिनी अत्र पश्यतु, भवन्तः निश्चिन्ताः भवन्तु इति वाक्यमस्ति. एकवचने वदतु गोपाः अत्र. अत्र पश्यतु भगिनी, पूर्वं गोपिकाः आगतवन्तः, अधुना गोपाः आगतवन्तः. तयोर्मध्ये भेदः अस्ति वा? डिड् यु नोटिस् द डिफ्रेन्स् बिट्वीन् गोपिकाः एण्ड् गोपाः?
यस्.
वदतु भेदः अस्ति चेत्.
गोपाः गोपिकाः स्त्रीलिङ्गम् एण्ड् गोपाः पुल्लिङ्गम्.
गोपाः पुंलिङ्गं. पूर्वं गोपिकाः आगतवन्तः, अधुना गोपाः अत्र आगच्छन्ति. तदा बलरामः किं वदति तान् प्रति?
भवन्तः निश्चिन्ताः भवन्तु.
एकवचने वदतु.
भवतः
भवान्
ओ भवान् निश्चिन्ता भवतु.
भवान् निश्चिन्तः भवतु.
निश्चिन्तः भवतु.
अनन्तरं स्वस्य कार्याणि निर्वहन्तु. तत् वदतु, एकवचने वदतु. स्वकर्तव्यानि, स्वकर्तव्यानि निर्वहन्तु. एकवचने वदतु.
स्वकर्त कर्तव्यां स्वकर्तव्यां
व्यं स्वकर्तव्यं
स्वकर्तव्यं
निर्वहतु. उत्तमं. पुनः वदतु.
स्वकर्तव्यं निर्वहतु.
उत्तमम्. आवां शीघ्रं प्रत्यागच्छावः इति अत्र आवां शीघ्रं प्रत्यागच्छावः अत्र वाक्यं द्विवचने अस्ति. आवाम् इति पदस्य रूपाणि वदतु भगिनी यदि भवती जानाति चेत्.
अहम्
आवां वयं
अहम् आवां वयम्.
उत्तमम्. अत्र बलरामः वदति आवां द्वौ अपि शीघ्रं प्रत्यागच्छावः. यदि एकवचने वदामश्चेत् केवलं बलरामः वदति चेत् किं वदति?
आवां शीघ्रं प्रत्यागच्छामि.
उत्तमं. बहुवचने वदतु तदेव वाक्यं.
वयं शीघ्रं प्रत्यागच्छामः. अस्तु.
उत्तमं भगिनि. अत्र शीघ्रम् इति पदमस्ति. शीघ्रम् इत्युक्ते किं जानाति वा?
आम्.
शीघ्रम् इत्यस्य अन्यत् रूपमस्ति त्वरा. त्वरा अथवा त्वरया. त्वरया इति अपि वक्तुं शक्नुमः. वयं शीघ्रं प्रत्यागच्छावः. अनन्तरं भवती एव समापयतु, कथां समापयतु. तदा किम् अभवत्?
यशोदां रोहिणीं च नमस्कृत्य तौ वदतः, भवत्यौ दुःखं मा कुरुताम्. आवां सुखेन प्रत्यागच्छावः.
इदानीं पर्यन्तं भवन्तः सर्वे कथायाः अर्थः कः इति ज्ञातवन्तः वा? डिड् आल् आफ़् यू अण्डर्स्टुड् द स्टोरि सो फार्? डु यु हेव् एनी क्वश्चन्स्? अवगतवन्तः. अधुना वयं केवलम् अभ्यासं कुर्मः. अहं चिन्तयामि भवन्तः सर्वे कथा सरला एव, अतः द स्टोरि इस् वेरि सिम्पल्. So you all can understand very easily. Bhagini, karotu. Atra. Yashodam Rohiniyam cha namaskrutya. Tau vadataha. Kau vadataha?
Bhavatyau dukkam ma kurutam. Kurutam. Avam sukena pratyagachavaha.
Kau vadataha ichukte. Who said these words? Kau dvivachanam. Balaramaha. Apicha Balaramakrishnau vadataha. भवत्यौ दुःखं मा कुरुताम्. अत्र मा कुरुताम् इति किमर्थमस्ति? भवत्यौ दुःखं मा कुरुताम् इति अस्ति. भवत्यौ इति पदस्य विषये किञ्चित् वदतु. भवत्यौ
द्विवचनं.
भवती. अत्र भवती, भवत्यौ, भवत्यः तथा भवति. अतः अत्र यशोदा रोहिणी तौ द्वौ अस्ति. अतः भवत्यः इति बहुवचनरूपं, भवत्यौ इति द्विवचनरूपम्. यशोदारोहिणीम् उद्दिश्य तौ उक्तवन्तः. तौ इत्युक्ते अत्र बलरामकृष्णौ उक्तवन्तः. अत्र भवत्यौ दुःखं मा कुरुताम्. कुरुताम् इति पदं जानाति वा? तदपि द्विवचने अस्ति. करोतु, कुरुताम्, कुर्वन्तु.
अस्तु.
तस्मिन् वाक्ये पदानि सर्वाणि अपि द्विवचने सन्ति. आवां सुखेन प्रत्यागच्छावः इति बलरामकृष्णौ वदतः. कं प्रति वदतः, कां प्रति? तत्र यशोदां प्रति अपि च रोहिणीं प्रति तौ वदतः. अनन्तरं किम् अभवत्? अन्तिमं वाक्यं पठतु.
ततः सर्वान् नमस्कृत्य तौ रथेन मथुरां गच्छतः.
उत्तमं. तौ द्वौ अपि सर्वान् नमस्कृत्य मथुरां प्रति गच्छतः. अत्र गच्छति, गच्छतः, गच्छन्ति. अत्रापि तौ इति द्विवचने अस्ति, गच्छतः इति अपि द्विवचने अस्ति. अत्र तथा बलरां कृष्णौ द्वौ अपि मथुरां गतवन्तः. किमर्थम्? आयुधपूजार्थं. मातुलः कंसः आयुधपूजार्थम् आह्वयति, अतः तौ द्वौ अपि मथुरां गतवन्तौ. तथा अक्रूरेण सह तौ द्वौ अपि मथुरां गतवन्तौ. कथा समाप्ता अस्ति. अहं चिन्तयामि सर्वे अवगतवन्तः इति. अहं चिन्तयामि सर्वे एकवारं ध्वनिमुद्रणं शृण्वन्तु. अधुना कालातीतः अभवत्. सर्वेषां धन्यवादः. अग्रिमे सप्ताहे मिलामः. शुभरात्रिः. उत्तमं. समापयामः.
शुभरात्रि भगिनि.
शुभरात्रि. धन्यवादः भगिनि.
धन्यवादः.
शुभरात्रि. धन्यवादः.
धन्यवादः.